एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः प्रदेश सभानाम् च निर्वाचनोत्तरकालिक्याः समग्रावस्थायाः विषये विमर्शनाय अद्य सत्तारूढ गठबन्धनस्य उपवेशः उपविश्यमानो वर्तते। नेकपा माओवादी केन्द्रस्य पदाधिकारिणाम् उपवेशम् अनु ह्य संचारकर्मी सह ब्रुवन् महासचिव देवप्रसाद गुरूङ अद्य सत्तारूढ गठबन्धनस्य उपवेशः आकारितोऽस्तीति अज्ञापयत्। उपवेशस्य समयः सूचितो नास्ति। नेकपा माओवादी केन्द्रस्य ह्य उपविष्टेन केन्द्रीय पदाधिकारिणाम् उपवेशेन सत्ता गठबन्धनस्य विद्यमानत्वात् प्रथमतः सत्ता गठबन्धनस्य दलानामेव मध्ये सर्वकार संगठन प्रक्रियायाः विषये विमृष्टुम् निर्णीतम् वर्तते। निर्वाचनम् समीक्षितुम् पेरिस टाँडावर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टेन पदाधिकारिणाम् उपवेशेन निर्वाचने प्राप्तम् परिणामम् स्वाभाविक रूपेण मत्वा गठबन्धनस्य दलानाम् मध्ये परस्परम् विमृश्य अग्रे वर्धितुम् निर्णीतमिति माओवादी केन्द्रस्य महासचिव देवगुरूङ उपवेशानन्तरं संचारकर्मिणः अज्ञापयत्। महासचिव गुरूङ नेकपा माओवादी केन्द्रम् अधुनावधि सत्ता गठबन्धनस्य अभ्यन्तरे एव वर्तते। गठबन्धने कापि समस्या च नोद्भूतेति हेतोः सर्वकार संगठनस्य सम्बन्धे गठबन्धनस्य मध्ये विमर्शनं विधातव्यमिति उपवेशस्य निष्कर्षोऽस्तीति अवोचत्। महासचिव गुरूङ अगदत् दलानां मध्ये सहमतेर्धारणस्य पश्चादेव अग्रेवर्धनस्य प्रक्रिया निर्णेष्यते। महासचिव गुरूङ सम्प्रत्येव गठबन्धनस्य त्यागस्य त्रोटनस्य च विषय उपवेशम् प्रविष्टः एव नास्तीति समस्पष्टयत्। अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य अन्तर्गतम् अतःपरम् प्रत्यक्षपक्षे एकस्यैव स्थानस्य अन्तिमपरिणामः अवशिष्टो वर्तते। अधुनावधि प्रतिनिधिसभायाः प्रत्यक्षपक्षे 65% स्थानेषु 64% स्थानानां परिणामः सार्वजनीकृतोऽस्ति। अतःपरम् दोलखा जनपदस्य प्रतिनिधिसभायाः एकस्य स्थानस्य परिणामः अवशिष्टोऽस्ति। जनपदे विद्यमानायाः मतगणनायाः पश्चात्तन परिणामस्य अनुसारेण प्रतिनिधिसभायाः सदस्यपक्षे एमाले दलस्य बालकृष्ण शिवाकोटी अग्रतायाम् वर्तते। शिवाकोटी इत्यनेन 23,10,67 मतानि प्राप्तानि सन्ति। एतस्य निकटतम प्रतिस्पर्धिना माओवादी केन्द्रस्य गंगा कार्किणा 23,39 च मतानि प्राप्तानि सन्ति। नेपाली कांग्रेस दलेन अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचने दलाभ्यन्तरे अन्तर्घातम् कृत्वा असहयोगम् विदधताम् जनानां सूचीम् केन्द्रम् प्रेषयितुम् निर्दिष्टम् वर्तते। दलस्य गठबन्धनस्य दलानां च प्रत्याशिभ्यः अन्तर्घातम् विधाय असहयोगः विहितः इत्युल्लिख्य जनपदीयायाम् प्रादेशिक्याम् च अनुशासन समितौ प्रस्तुतानि निवेदनानि निर्णीय केन्द्रीयानुशासन समितौ प्रेषयितुम् ह्यो निर्देशनम् प्रदत्तमिति दल कार्यालयो ज्ञापयति। जनपदीयायाः प्रादेशिक्याश्च अनुशासन समितेः असंघटनस्य अवस्थायाम् तत्कालम् अनुशासन समितिम् संघटय्य सनिर्णयम् विवरणम् आगामिनः पौषमासस्य 15 दिवसस्य अभ्यन्तरे केन्द्रम् प्रेषयितुम् निर्देशनम् प्रदत्तमिति दलस्य केन्द्रीय कार्यालयस्य सचिवः प्रेम केसी अज्ञापयत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल भासते भावी सर्वकारेण राजनीतिका स्थिरतायै सुशासनाय विकासाय ग्रामे एव वृत्त्यवसर सर्जनाय च प्राथमिकता प्रदातव्या। तनहु जनपदस्य व्यासनगरपालिकायाः अष्टमवडा क्षेत्रवर्तिनी पुलिमराङ स्थाने ह्य आयोजिते कार्यक्रमे प्रतिनिधिसभाया नवनिर्वाचित सदस्यश्च वरिष्ठ नेता पौडेल अवदत् सत्तारूढ गठबन्धनस्य लक्ष्यम् शान्ति सुशासनम् स्थिर सर्वकारश्च वर्तते। वरिष्ठ नेता पौडेल अगदत् नवनिर्वाचितै जनप्रतिनिधिभिः जनताया विश्वासो न वञ्चनीय। स्वास्थ्य जनसंख्या मन्त्री भवानी प्रसाद खापुङ कथयति महिला हिंसायाः अन्ताय जनचेतनायाः वृद्धिः प्रथमा आवश्यकता वर्तते। काष्ठमण्डपे ह्य आयोजिते महिला हिंसा विरोधिनी कार्यक्रमे मन्त्री खापुङ चेतनायाः स्तरस्य नगर ग्राम समुदायानाम् अनुसारेण पार्थक्यस्य कारणेन हिंसायाः अन्ताय सम्बद्धैः सर्वैः निकायैः सहकार्यम् कर्तव्यमिति प्रत्यपादयत्। लैंगिक हिंसा विरोधिनः 16 दिवसीयस्य अन्तर्राष्ट्रियाभियानस्य क्रमे स्वास्थ्य जनसंख्या मन्त्रालयेन विभिन्नाः सञ्चेतनामूलकाः कार्यक्रमाः सञ्चाल्यमानाः सन्ति। गृहमन्त्री बालकृष्ण खण कथयति प्रहरिणाम मनोबलस्य अभिवृद्धये सर्वकारेण सर्वविध प्रयासाः क्रियन्ते। सीमाप्रासाद सुरक्षागणस्य प्रहरी कर्मचारिभिः सह मेलनस्य पश्चात् आयोजिते समारोहे ह्यो गृहमन्त्री खण प्रहरिणः मनोबलम् अभिवर्धयितुम् आवश्यक कार्यस्य सम्पादनाय प्रहरीकृतान् अपि निरदिशत्। गृहमन्त्रिणा खण इत्यनेन कार्यालयवर्ति प्रहरी शिविरम् निरीक्षितम् आसीत्। गृहमन्त्री खान प्रहरिणः उच्च मनोबलेन प्रविधिम् अपि अधिकतमम् उपयुज्य शान्ति सुरक्षायोः अपराधस्य नियन्त्रणे च सन्नद्धाः भवितुम् निरदिशत्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः रेडियो नेपाल संचालक समितेः अध्यक्षश्च डाक्टर वैकुण्ठ अरियालः निगदति रेडियो नेपालेन स्वस्य समाचाराणाम् कार्यक्रमाणाम् च माध्यमेन राज्यस्य नागरिकाणाम् च मध्ये सेतोः कार्यम् कर्तव्यम्। रेडियो नेपाले ह्य आयोजिते नवनियुक्त कर्मचारिणाम् सेवा प्रवेशाभिमुखीकरण प्रशिक्षणे सचिवः डाक्टर अरियालः रेडियो नेपाले अवसर समाह्वयौ उभौपि विद्येते इत्यतः नवप्रविष्टया जनशक्त्या उच्चैर् मनोबले प्रतिस्पर्धायं सन्नद्धया भाव्यमिति बलं प्रादात्। असौ अवासत रेडियो नेपालः विगतकालिकानां गीत संगीत समाचार कार्यक्रमाणाम् अभिलेखालयो वर्तते। कार्यक्रमे रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी अवोचत् नवीन जनशक्त्या स्वकीय क्षमतां व्यावहारिक रूपेण परिष्कृत्य संस्थायाः हिताय कार्यक्षेत्रे प्रवर्तितव्यम्। रेडियो नेपालस्य नायब कार्यकारी निर्देशक खगेन्द्र खत्री रेडियो नेपालात् सेवा प्रवाहवधौ कार्यशैली चिन्तनम् च परिवर्त्य प्रविधिम् उच्चैः प्रयोक्तुम् बलम् अददात्। यः प्रारब्धम् अभिमुखीकरण प्रशिक्षणमिदम् आगामिनम् त्रयोविंशम् दिवसम् यावत् संचलिता। बैतडी जनपदस्य पञ्चेश्वर ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य एकविंशति वर्षीयायाः माया लुहार इत्यस्याः हत्यायाम् संलग्नतायाः आरोपी सशस्त्र प्रहरी भरतराम कोली कञ्चनपुरस्य महेन्द्रनगरात् निगृहीतो वर्तते। बैतडी जनपदस्य शिवनाथ ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य सशस्त्र प्रहरिणा कोली इत्यनेन अवकाशे गृहे विद्यमानावस्थायां माया इत्यस्याः कण्ठच्छेदनेन हत्यां विधाय तत्रैव स्थितायाः नेहा लुहार इत्यस्याश्च हत्यायाः प्रयासः कृतोस्तीति आरोपो वर्तते। अस्यैव मासस्य त्रयोदशे दिवसे बैतडी जनपदस्य शिवनाथ ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य शिवनाथ मन्दिरस्य निकटे माया इत्यस्याः शवः नेहा आहतावस्थायां च प्राप्ते आस्ताम्। बांके जनपदस्य राप्ती नद्या प्रवाह्य विलुप्तस्य जनद्वयस्य शवौ प्राप्तौ स्तः। राप्ती सोनारी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य डाँडा टपरी स्थानस्य द्वाविंशति वर्षीयायाः कञ्चन थारू इत्यस्याः त्रयोदश वर्षीयायाः अर्पणा थारू इत्यस्याश्च शवौ प्राप्ताविति प्रहरिणा ज्ञापितमस्ति। बदरीफलस्य भक्षणाय वनम् गतम् जनद्वयमेव राप्ती नद्याः तरणक्रमे शनिश्चरवासरात् विलुप्तमासीत्। राप्ती सोनारी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य खल्ला टपरी स्थाने शवौ प्राप्तौ इति बांके जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक रामबहादुर घर्ती अज्ञापयत। घटनायाः विषये अतिरिक्तम् अनुसन्धानम् विधीयमानमस्ति इति प्रहरिणा ज्ञापितमस्ति। नुवाकोट जनपदस्य दुप्तेश्वर ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य दुप्तेश्वर मन्दिरे धान्यपूर्णिमायाम् समायोज्यमाना मेला ह्य प्रारब्धास्ति। प्रतिवर्ष मार्गशीर्षस्य शुक्लपक्षस्य मोक्षदैकादशीतः प्रारभ्य धान्यपूर्णिमां यावत् समायोज्यमानायं मेलायं देशस्य विभिन्न क्षेत्रेभ्यः दर्शनार्थिनां गमनागमनं प्रारब्धमस्ति। अस्यैव मासस्य प्रथम सप्ताहे शुक्रास्तस्य समाप्तेः अनुपदमेव दर्शनार्थिनां सम्मर्दः वर्धमानः आसीत्। धान्यपूर्णिमायाः अवसरे एकादशीतः दर्शनार्थिनां सम्मर्दः अतिरिक्तः वर्धितोस्तीति दुप्चेश्वर क्षेत्र विकास कोषस्य अध्यक्ष किशोर आचार्यः अज्ञापयत्। पाकिस्तान देशस्य दक्षिण पश्चिमवर्तिनो बलुचिस्तान प्रान्तस्य हरनाई जनपदे विद्यमानायम् अंगारखन्यम् बम्बास्त्रम् विस्फोटितम् सद षड् जनाः मृताः सन्ति इति समाचाराः।